इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधितिवारी। इदानीं वार्ताः। राष्ट्रपति पदासीना द्रौपदी मुर्मुः ह्यः संसदः उभयोः सदनयोः संयुक्तोपवेशनं सम्बोधयन्ती प्रशासनस्य प्राथमिकताः प्रकाशितवती। राष्ट्रपतिः प्रोक्तवती यत् ग्रामेषु कृषि दुग्धोत्पादक मत्स्याधारितोद्योगानां विस्तारः क्रियते। स्वीय एकहोरात्मके अभिभाषणे राष्ट्रपतिना आधारभूत संरचनानां विकासाय प्रशासनस्य पदक्षेपान् अपि उत्थापितवती। प्रोक्तवती च यत् प्रधानमन्त्री ग्राम सड़क योजनायाः अन्तर्गतं विगतेषु दशवर्षेषु 80,000+ किलोमीटरमितं ग्रामीण मार्गाणां निर्माणं जातम्। पूर्वोत्तर राज्यस्य विकासम् अभिलक्ष्य राष्ट्रपतिः अकथयत् यत् प्रशासनं स्वीय एक्ट ईस्ट इत्यस्याः नीतेः अन्तर्गतं एतेभ्यः क्षेत्रेभ्यः रणनीतिक प्रवेशद्वारस्य निर्माणस्य कार्यमपि समाचरति। एतस्मिन् क्रमे असमराज्ये 27,000+ कोटिरूप्यकाणां व्ययेन निर्मितस्य अर्धचालक संयन्त्राणि स्थापयति। निजोद्बोधने राष्ट्रपतिः अग्रे निगदितवती यत् जम्मू कश्मीर राज्येन भारतस्य शत्रुभ्यः लोकसभा निर्वाचने कीर्तिमत् स्वरूपेण मतदानानि कृत्वा प्रबलोत्तरं प्रदत्तम्। स्वोद्बोधनम् अग्रे प्रख्यापयन्ती राष्ट्रपतिः अभिव्यक्तवती यत् नवनिर्वाचित प्रशासनेन अस्मिन् सदने स्वकीय सामान्य आयव्यय अर्थसंकल्पनापत्रं प्रस्तूयते यद्धि भविष्यकालिक दृष्टियुतं नीतियुतं च भविष्यति। व्यतीतेषु दशवर्षेषु देशस्य अर्थव्यवस्था 11 सोपानतः 5 सोपानि समायाता। केन्द्रीयान्वेषणाभिकरणेन नीट यूजी परीक्षा सम्बद्धे प्रकरणे द्वौ जनौ निगडितौ। आधिकारिक सूचनानुसारि एतौ जनौ बिहारस्य पटनातः गृहीतौ। नीट यूजी परीक्षा प्रश्नपत्राणां दुरुद्घाटनस्य प्रकरणस्य निरीक्षणकर्ता सीबीआई इति सोमवासरे बिहारारक्षिदलस्य आर्थिकापराधघटकस्य कार्यालयं प्रति गतवान्। तत्सम्बद्धे च निरीक्षणम् अपि साधितवान्। प्रधानमन्त्री नरेन्द्रमोदी आकाशवाण्याः मन की बात इत्यस्मिन् कार्यक्रमे अस्य मासस्य 30 दिनांके रविवासरे देशवासीभिः साकं विचारविनिमयं करिष्यति। मन की बात इति मासिक कार्यक्रमस्य इदं 11 संस्करणं भविता। अस्य कार्यक्रमस्य प्रसारणं आकाशवाण्याः दूरदर्शनस्य च सर्वाभिः वाहिनीभिः प्रसारयिष्यते। अयं कार्यक्रमः आकाशवाणी दूरदर्शन प्रधानमन्त्री कार्यालय सूचना प्रसारण मन्त्रालय इत्येतेषां यूट्यूब वाहिनीष्वपि द्रष्टुं शक्यते। प्रधानमन्त्रिणः सम्बोधनानन्तरम् अनुक्षणम् अयं कार्यक्रमः क्षेत्रीय भाषास्वपि श्रोतुं शक्यते। अपि च क्रिकेट प्रतिस्पर्धायाम् अन्ताराष्ट्रिय क्रिकेट परिषदः पुरुषाणां 20-प्रति20 क्रिकेट विश्व चषक प्रतिस्पर्धायां ह्यः रात्रौ गुवानानगरे स्पर्धायाम् उपान्त्यचक्रे भारतदलं इंग्लैण्डदलं 68 धावनांकैः पराजित्य अन्तिमचक्रे द्वन्द्वाय प्राविशत्। श्वः शनिवासरे बार्बाडोसनगरे भारतस्य प्रतिस्पर्धा अन्तिमचक्रे दक्षिणाफ्रिकादलेन साकं भविष्यति। ऋतुविज्ञान विभागेन जम्मूकश्मीर लद्दाख गिलगित बाल्टिस्तान मुजफ्फराबाद हिमाचल प्रदेश पंजाब हरियाणा चंडीगढ़ पश्चिमीय राजस्थान इत्येतेषां राज्येषु मध्यम वृष्ट्याः पूर्वानुमानः कृतः। विभागस्य अनुसारेण एतेषु भागेषु महती वृष्टिः भविष्यति। इति वार्ताः।